आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। भारतीय प्रवासिनः राजदूत इति सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् ते सर्वदा देशस्य सशक्तमाः राष्ट्रदूताः एव। प्रधानमन्त्रिणा गतरात्रौ न्यूयॉर्क नगरस्य लांग द्वीपे नासाउ कोलिजियम नगरे एकस्मिन् कार्यक्रमे भारतीय समुदायस्य विशालं जनसमागमं सम्बोधयन् इदमुक्तम्। भारतामेरिका द्विपक्षीय सम्बन्धेष् भारतीय प्रवासिनः भूमिकायाः प्रशंसां कुर्वन् श्रीमोदी अवदत् यत् विश्वस्य कृते एआई इति कृत्रिम बुद्धि अस्ति, परन्तु सः मन्यते यत् एआई इति अमेरिका भारतीय भावनायाः अपि प्रतिनिधित्वं करोति। सः अवदत् भारतीय प्रवासिनः अमेरिकां भारतेन सह, भारतं अमेरिका देशेन च सह संयोजितवन्तः। तेषां कौशलं प्रतिभा च अव्याख्यितम् अस्ति। प्रधानमन्त्रिणा अमेरिकी राष्ट्रपतिनः जो बाइडेन इत्यस्य गृहे आतिथ्य ग्रहणानन्तरं कृतज्ञतां प्रकटितवान्। चत्वारिंशदधिकैकशतकोटि भारतीयानां कृते अयं गौरववः इति सः अवदत्। श्रीमोदी उक्तवान् यत् अमेरिकादेशस्य बोस्टन लॉस एंजेलिस नगरे च द्वौ नूतनौ भारतीय वाणिज्य दूतावासौ उद्घाटितौ भविष्यतः। एषः विस्तारः सम्पूर्णे अमेरिकादेशे भारतीय प्रवासिभिः सह सम्बन्धं सुदृढं कर्तुं भारतस्य प्रतिबद्धतां प्रकटयति। भारतस्य सम्प्रति न्यूयॉर्क, अटलांटा, शिकागो, ह्यूस्टन, सैन फ्रांसिस्को, सिएटल इत्यादिषु च षड् वाणिज्य दूतावासाः सन्ति। प्रधानमन्त्री नरेन्द्रमोदी न्यूयॉर्क नगरे कुवैतस्य युवराज्ञा शेख सबा खालिद अल हमाद अल सबा इत्यनेन सह द्विपक्षीय वार्तालापं कृतवान्। सः नेपालस्य स्वीय समकक्षेण केपी शर्मा ओली इत्यनेन सहापि वार्ताम् अकरोत्। प्रधानमन्त्री मोदी वर्तुलाकारे एकस्मिन् सम्मेलने व्यापार नेतृभिः सह उदीय मानव प्रौद्योगिकी सहकार्यस्य विषये अपि चर्चां कृतवान्। रक्षामन्त्री राजनाथ सिंहः अद्य राजस्थानस्य जयपुरे एकस्य सैनिक विद्यालयस्य उद्घाटनं करिष्यति। रक्षामन्त्रालयेन उक्तं यत् निज संस्थाभिः सर्वकारैः निज विद्यालयैः च सह संयुक्तरूपेण देशे सर्वत्र शतं नूतन सैनिक विद्यालयानां स्थापना सर्वकारस्य दृष्टेः भागो विद्यते। मन्त्रालयेन सहभागविधायाः अन्तर्गतं 45 नूतन सैनिक विद्यालयानाम् अनुमोदनं कृतमस्ति। एते नवीनाः विद्यालयाः सैनिक विद्यालय संघस्य आश्रये कार्यं करिष्यन्ति, नियम विनिमयानाम् अनुसरणं च करिष्यन्ति। श्रीलंकादेशे राष्ट्रपति निर्वाचने अनुरादिशा नायके इत्यस्य विजय प्राप्तेः अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी अभिनन्दनं ख्यापितवान्। स्वसन्देशे श्रीमोदी अवदत् यत् भारतस्य नेबरहुड फर्स्ट इति प्रतिवेशि प्रथमं नीत्यानुसारं दृष्टिसागरे श्रीलंकादेशस्य विशिष्टस्थानं वर्तते। सः अवदत् यत् सः जनानां सम्पूर्णक्षेत्रस्य च कल्याणाय बहुपक्षीय सहकार्यम् अधिकं सुदृढं कर्तुं दिशानायकेन सह मिलित्वा कार्यं कर्तुम् उत्सुकः अस्ति। भारत क्रिकेट नियन्त्रण मण्डलेन बीसीसीआई इत्यनेन पुरुष क्रीडक चयन समित्या च बांग्लादेशं विरुध्य द्वितीय स्पर्धायाः कृते भारतीय दलस्य घोषणा कृता। द्वितीय क्रीडायाः कृते दलम् अपरिवर्तितं वर्तते इति चयन समित्या पुष्टीकृता अस्ति। अस्य मासस्य 27 दिनांकादारभ्य कानपुर नगरे इदं द्वन्द्वं भविष्यति। भारतेन बांग्लादेशम् 80+200 धावनांकानां बृहद् अंकैः प्रथमायाः निकषस्पर्धायाः चतुर्थे दिने पराजितम् इति वार्ताः।